अभयदातारम् उभयतारकम् पापविच्छेदिनम् तापनाशनम् उद्धारकम् आत्मभवं देवं नमामि येसु नवदीयते तेजम्।